ॐ श्री देवी अथर्वशीर्षम् ॐ सर्वे वै देवा देवी उपमस्थुः काशी त्वं महादेवीति साब्रवीत् अहं ब्रह्मस्वरूपिणी मत्त प्रकृति पुरुषात्मकं जगत् शून्यं च शून्यं च अहमानन्दानानन्दो अहं विज्ञानाविज्ञाने अहं ब्रह्म अब्रह्मणि वेदितव्ये अहं पञ्चभूतानि अपञ्चभूतानि अहम् अखिलं जगत् वेदोऽहम् अवेदोऽहम् विद्याहम् अविद्याहम् अजाहमनजाहम् अधश्चोर्ध्वं चतिर्रक्षाहम् अहं रुद्रेभिः वसुभिश्चरामि अहमादित्यैरुतविश्वदेवैः अहं मित्रावरुणावुभौ बिभर्मि अहम् इन्द्राग्नि अहम् अश्विनावुभौ अहं सोमं त्वष्टारं पूषणं भगं दधामि अहं विष्णुं रुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते अहं राष्ट्री सङ्गमनि वसूनां चिकितुषि प्रथमायज्ञियानाम् अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे य एवं वेद स देवीं सम्पदमाप्नोति ते देवा अब्रुवन् नमो देव्यै महादेव्यै शिवायै सततं नमः नमः प्रकृत्यै भद्रायै नियतः प्रणतास्मतां तामग्निवर्णा तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टां दुर्गां देवीं शरणं प्रपद्या महेसुरान्ना सैत्रे ते नम देवीं वाचमजनयन्तदेवा स्तां विश्वरूपः पशवो वदन्ति शानो मन्द्रे समुर्जदुहाना धेनुर्वागस्मानुपसुष्टुतैतु रात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरं सरस्वतीं अदितिं दक्षदुहितरं नमाम पावनां शिवां महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि तन्नो देवी प्रचोदयात् अदितिर्यजनिष्ठ दक्ष या दुहिता तव तां देवा अन्वजायन्त भद्रा अमृतबन्धव कामो योनि कमला वज्रपाणि गुहाहसा मातरि स्वाभ्रमिन्द्र पुनर्गुहा सकला मायया च पुरुज्यैषा विश्वमाता दिविद्योम् एषात्मशक्तिः एषा विश्वमोहिनी पाशाङ्कुशधनुर्बाणधरा एषा श्रीमहाविद्या य एवं वेद स शोकं तरति नमस्ते अस्तु भगवति मातरस्मान् पाहि सर्वत शैषाष्टो वसवः शैषेकादश रुद्राः सैषा द्वादशादित्याः सैषा विश्वे देवाः सोमपा असोमपाश्च सैषा यातु धाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः सैषा सत्त्वरजस्तमांसि सैषा ब्रह्मविष्णुरुद्ररूपिणी सैषा प्रजापतीन्द्रमनवः सैषा गृहनक्षत्रज्योतिषीं कला काष्ठादिकालरूपिणी तामहं प्रणोमि नित्यं पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवां दीकारसंयुक्तं vitihotra samanvitam ardhendulasitam devya bijam sarvartha sadakam eva mekaksharam brahma yatayah suddha cetasah dhyayanti paramanandamaya jnanam burashayah vangmaya brahma sustasmat shashtam vaktra samanvitam suryo vama sotra bindu sanyukta strutriyakah narayanena sammishro vayuschadhara yuktata vichche narvana kornashyan mahadananda dayaka yat pundarika madhyastham prata surya samaprabham pasankushadharam saumyam varadabhaya hastakam trinetran rakta vasna vaktakam dudham bhaje namami tvam mahadevim mahabhaya vinashini mahadurga prashamani mahakarunya rupini yasyah swarupam brahmadayo na jananti tasmaduchyate agneya yasya anto na labhyate tasmaduchyate ananta yasya lakshyam nopalakshyate tasmaduchyate alakshya yasya jananam nopalabhyate tasmaduchyate aja ekaiva sarvatra vartate tasmaduchyate eka ekaiva visvarupini tasmaduchyate naika ata evocchate agneya ananta lakshya jayika naiketi mantranam matruka devi shabdanam jnana rupini jnananam chinmayatita shunyanam shunya sakshini yasyah parataram nasti shaisa durga prakirtita tam durgam durgamam devi durachara vidhatinim namami bhavati toham sansararnavatarinim idam atharva shirsam yo adhitesa pancha atharva shirsam japaphalam vapnoti idam atharva shirsam agnyatva yorcha sapayati satalaksham prajatvapi sorcha siddhim navindati satamashto taram chasya purascharya vidhi snuta dashavaram pathedyastu sadhya papai pramuchyate mahadurgani tarati mahadevya prasadata yamadhyano divasakratam papam nasayati pratarayadhyano ratri kritam papam nasayati sayam prata prayuchyano apapo bhavati nishite turiya sandhyayam japtva vaksiddhir bhavati nutanayam pratimayam japtva devata sanidhyam bhavati prana pratishthayam japtva prananam pratishtha bhavati bhaumashinyam mahadevi sannidau japtva mahamrityum tarati samahamrityum tarati yaevam veda ityupanishat harihi om.